एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः प्रतिनिधि सभाया ह्यस्तनोपवेशेन एतत् विक्रमवर्षीयम् नेपाल नागरिकता द्वितीय संशोधन विधेयकम् प्रस्तुतमस्ति उपवेशे विधेयकम् प्रस्तुवन् गृहमन्त्री रमेश लेखकः नागरिकतायाः प्राप्तेर्विषयम् अतिरिक्तम् व्यवस्थितम् विधातुम् सन्दर्भेस्मिन् सर्वोच्च न्यायालयेन प्रदत्तम् आदेशम् क्रियान्वेतुम् च नागरिकताधिनियमे संशोधनम् आवश्यकम् अभूदिति समस्पष्टयत् गृहमन्त्री लेखक जनमताधारेण नेपाली नागरिकताम् जन्मनः आधारेण नेपाली नागरिकताम् प्राप्तवतो पित्रोः सन्तत्यै सम्प्रति पित्रोः सम्पर्के अविद्यमानायै व्यक्त्यै च नागरिकतायाः प्राप्तये सहजता प्रदानस्य उद्देश्येन विधेयकम् आनीतमस्तीति स्पष्टीकृतवान् गृहमन्त्री लेखकः प्रतिनिधिसभायाः ह्यस्तनोपवेशे एतद् विक्रमवर्षीये नेपाल प्रहरी विधेयकम् सशस्त्र प्रहरी बल नेपाल विधेयकम् च प्रस्तुतवान् आसीत् उपप्रधानार्थ मन्त्रिणा विष्णु प्रसाद पौडेलेन प्रस्तुतम् एतत् विक्रमवर्षीयम् कोषागारीयापराध दण्डन द्वितीय संशोधन विधेयकमाश्रित्य विमृश्यताम् इति कृत्वा प्रस्तुतः प्रस्तावः स्वीकृतोऽस्ति तत्पूर्वम् प्रतिनिधिसभाया ह्यस्तनोपवेशे सांसदाः अग्निदाहस्य दावानलस्य च नियन्त्रणाय सर्वकारस्य ध्यानम् आकर्षयन् एवमेव उपवेशे सांसदाः संसदि पंजीकृतानाम् अध्यादेशानाम् संसदि अवरूद्धानाम् विधेयकानाम् भ्रष्टाचार निवारणस्य च विषयेषु अन्येषु सामयिक विषयेषु च सर्वकारस्य ध्यानम् आकर्षयन् राष्ट्रिय सभाया ह्यस्तनोपवेशेन एतद् विक्रमवर्षीयम् जलपोतयान संचालन व्यवस्थापन विधेयकम् आश्रित्य विचार्यतामिति निगद्य प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतोऽस्ति एवमेव उपवेशे एतद् विक्रमवर्षीयम् सामाजिक सञ्जाल विधेयकम् गत विक्रमवर्षीयाय व्ययकस्य क्रियान्वयनस्य अर्धवार्षिक मूल्याङ्कन प्रतिवेदनम् च प्रस्तुते स्तः तत्पूर्वम् राष्ट्रिय सभायाः उपवेशे सांसदाः अन्तर्जातीय विवाहम् कृतवद्भ्यो जनेभ्यः राज्येन दुःख प्रदानस्य कार्यम् विहितम् अस्तीत्यतः तथाविध कार्ये संलग्नाः दोषिणो जनाः विदेहे परिधौ आनेयाः इति बलम् प्रादुः राष्ट्रिय सभायाः अपर उपवेशः अद्य सोमवासरे दिवा सपादैकवादने वसति मनाङ जनपदस्य चामे ग्रामपालिकाया प्रथमवडा क्षेत्रस्य तिमाङ बने दुरापन्नः दावानलः अधुनापि नियन्त्रितो नास्ति अस्यैव माघमासस्य अष्टादशात् दिवसात् दुरापन्नः दावानलः दश दिनेषु अपि नियन्त्रितो नास्तीति मनाङ जनपद प्रशासन कार्यालयेन ज्ञापितम् वर्तते दावानलस्य समय एव नियन्त्रणस्य अभावेन बने विद्यमानः मेषचमर गव्यादयो वन्यजन्तवः विनष्टाः सन्तीति मनाङ प्रमुख जनपदाधिकारी मातृका आचार्यः अज्ञापयत् प्रधानमन्त्रिणा केपी शर्मा ओलिनः अध्यक्षतायाम् एतद् विक्रमवर्षीया राष्ट्रिय प्रजातन्त्र दिवस मूल समारोह समितिः संघटिता वर्तते प्रधानमन्त्री मन्त्री परिषदः सीमा प्रासाद वर्तिनी कार्यालये ह्य उपविष्टेन उपवेशेन गृह मन्त्रालयस्य प्रस्तावेन मूल समारोह समितेः संघटनेन सहैव विभिन्नोपसमितीनाम् संघटनस्य कार्यक्रमाणाम् च प्रस्तावोऽपि पारितीकृतो वर्तते प्रजातन्त्र दिवसस्य अवसरे आगामिनः फाल्गुन मासस्य षष्ठ सप्तमाष्टम दिवसेषु दिनत्रयम् यावत् नेपालवर्तिषु राजदूतावासेषु विदेशवर्तिषु राजदूतावासेषु कूटनीतिक नियोगेषु वाणिज्य दूतावासेषु च दीपावल्याः फाल्गुनस्य सप्तमे दिवसे टुडी खेलवर्तिनी सैनिक मञ्चे मूल कार्यक्रमश्च आयोक्ष्यते उपवेशे प्रधानमन्त्री केपी शर्मा ओली प्रजातन्त्र दिवस औपचारिकतायामेव सीमिति न कर्तव्य इति बलम् प्रादात् प्रधानमन्त्री केपी शर्मा ओली गदति अध्यादेशाः संसदः पारिति भविष्यन्ति न वेति विषयस्य चर्चायाः सम्प्रति समयः सम्भूतो नास्ति संघीय संसद परिसरे अध्यादेशानाम् विषये पृष्ठस्य प्रश्नस्य सन्दर्भे संचारकर्मी विह संक्षिप्त प्रतिक्रियां प्रददत्। प्रधानमन्त्री ओली सम्प्रति संसद गणपूरक संख्याया परिगणनस्य बेला आगता नास्तीति अवोचत। संसद शीतकालिकाधिवेशनस्य प्रारभणात् पूर्वं सर्वकारेण विभिन्न दिनांकेष् षट् अध्यादेशा क्रियान्विता वर्तन्ते। संसद नियमावल्या अनुसारेण संसद उपवेशस्य प्रारभणानन्तरं अध्यादेशानाम् उपवेशे प्रस्तुतेः प्रावधानं वर्तते। आगामिनो ज्येष्ठ मासस्य द्वितीया चतुर्थं दिवसं यावत् काष्ठमण्डपे आयोक्ष्यमाणस्य सगरमाथा शिखर संवाद कार्यक्रमस्य सन्दर्भे प्रधानमन्त्रिणा केपी शर्मा ओलिनः उपस्थितौ इह पूर्वकार्योपवेशः सम्पन्नोऽस्ति। कार्यक्रमस्य विशेष्य ज्ञापनाय ह्यस्तनात् दिवसात् सगरमाथा शिखर संवाद .com इति वेबसाइट सञ्जाल सञ्चालितो वर्तते। सभामुखा देवराज घिमिरे कथयति हिमालयानां कृष्णी भवनमेव जलवायु परिवर्तनस्य प्रत्यक्ष प्रमाणं वर्तते। ह्य काष्ठमण्डपे आयोजिते एकस्मिन् कार्यक्रमे सभामुख घिमिरे हिमालयान् रक्षितुं सावधानतायाः अवलम्बनम् आवश्यकम् अस्तीति उदैरयत। सभामुख घिमिरे वर्धमान कार्बन वायोः उत्सर्जनस्य कारणेन पृथिव्याः तापक्रमस्य वर्धनात् नेपालः गभीरेण प्रभावितोऽस्तीत्यतः जलवायोः परिवर्तनस्य प्रभावं न्यूनीकर्तुं नैरन्तर्येण प्रयासस्य आवश्यकतास्तीति बलं प्रादात्। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा कथयति कांग्रेस दलस्य अभ्यन्तरे सुदृढायाम् एकतायाम् सत्यम् दलम् कयापि शक्त्या पराजेतुम् न शक्यते। दाङ जनपदीयेन कांग्रेस दलेन ह्य घोराईस्थाने आयोजिते कार्यकर्तृ मेलन कार्यक्रमे सभापति देउवा एतदर्थं दलाभ्यन्तरे सुदृढैकतायाः आवश्यकता अस्तीत्यतः ऐक्यबद्धाः भवितुम् सर्वान् नेतृन् कार्यकर्तृञ्च अन्वरुणात् इति समाचाराः।